महिम्नः पारन्ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः अथा वाचः सर्वस्वमतिपरिणामावधिगृणन् ममाप्येष स्तोत्रे हर निरपवादः परिकरः अतीतः पन्थानन्तव च महिमा वाङ्मनसयो रतद्व्यावृत्यायम् च कितमभिधत्ते श्रुतिरपि स कस्य स्तोतव्यः कतिविध गुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः मधुस्फीता वाचः परममृतम् निर्मितवत् तव ब्रह्मन् किम् वागपि सुरगुरोर्विस्मयपदम् मम त्वेताम् वाणीम् गुणकथन पुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथ न बुद्धिर्व्यवसिता तव ईश्वर्यम् यत्तज्जगदुदय रक्षा प्रलयकृत् त्रयी वस्तु व्यस्तन्ति सृषु गुणभिन्नासु तनुषु अभव्यानामस्मिन् वरदरमणीयाम रमणिम् विहन्तुम् व्याक्रोशिम् विदधत इहैके जडधियः किमीह किम् कायः स खलु किमुपायस्त्रिभुवनम् किमाधारो धाता सृजति किमुपादानैति च अतर्क्यैश्वर्ये त्वय्यनवसरदुस्थो हतधियः उतर्कोऽयम् कांश्चिन्मुखरयति मोहाय जगतः अजन्मानो लोकाः किमवयववन्तोऽपि जगताम् अधिष्ठातारम् किम् भवविधिरनादृत्य भवति अनीशो वा कुर्याद्भुवन जनने कः परिकरो यतो मन्दास्त्वाम् प्रत्यमरवर संशेरत इमे त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च रुचीनाम् वैचित्र्यादृजुकुटिलनापथजुषान् नृणामेको गम्यस्त्वमसि पयसामर्णवैव महोक्षखट्वाङ्गम् परशुरजिनम् भस्म फणिनः कपालम् चेत्ति यत्तव वरद तन्त्रोपकरणम् सुरास्तान्ताम् वृद्धिम् दधति तु भवद्भ्रूप्रणिहितान् न हि स्वात्मा रामौ विषयमृगतृष्णा भ्रमयति ध्रुवम् कश्चित् सर्वम् सकलमपरस्त्वध्रुवमिदम् परो द्रव्याद्रव्ये जगति गदति व्यस्तविषये समस्तेऽप्येतस्मिन् पुरमथनतैर्विस्मितैव स्तुवन् जिह्रेमि त्वान्न खलु ननु दृष्टा मुखरता तव ऐश्वर्यम् यत्नाद्यदुपरि विरिञ्चिर्हरिरधः परिच्छेतुम् यात्तावनलमनलस्कन्दवपुषः ततो भक्तिश्रद्धा भरगुरुगृणद्भ्याम् गिरिशय स्वयन्तस्थेताभ्याम् तव किमनुवृत्तिर्न फलति अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरन् दशास्यो यद्बाहूनभृतरणकण्डूपरवशान् शिरः पद्मश्रेणीरचितचरणाम्भोरुहबले स्थिरायास्त्वद्भक्ते स्त्रिपुरहर विस्फूर्जितमिदम् अमुष्टत्वत्सेवा समधिगतसारम् भुजवनम् पलात्कैलासेऽपि त्वदधिवसतौ विक्रमयतः अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासि ध्रुवमुपचितो मुह्यति खलः यदृद्धिम् सुत्राम्णो वरद परमोच्चैरपि सतीम् अधश्चक्रे बाणः परिजन विधेयस्त्रिभुवनः न तच्चित्रं तस्मिन् वरिवसि तरि त्वच्चरणयोर् न कस्याप्युन्नत्यै भवति शिरसस्त्वयि अवनतिः अकाण्ड ब्रह्माण्ड क्षयचकित देवासुरकृपा विधेयस्यासीद्यस्त्रिनयन विषं संवृतवतः सकल्माशकण्ठे तव न कुरुते न श्रियमहो विकारोऽपि श्लाघ्यो भुवन भयभङ्गौ व्यसनिनः असिद्धार्था नैव क्वचिदपि स देवासुरनरे निवर्तन्ते नित्यै जगति जैनो यस्य विशिखाः स पश्यन्नीशत्वाभितरसुरसाधारणमभूत् स्मर स्मर्तव्यात्मा न हि वशिशुपथ्यः परिभवः महीपादाघातात् व्रजति सहसा संशयपदम् पदम् विष्णोर्भ्राम्यद्भुज परिगरुक्णग्रहगणम् मुहुर्द्यौर्दौस्थ्यैयात्यनिभृत जटा ताडिततटा जगद्रक्षायै त्वन्नटसि ननु वामैव विभुता वियद्व्यापी तारागणगुणित फेनोद्गमरुचि प्रवाहो वाराय पृषत लघु दृष्टः शिरसि ते जगद्वीपाकारै जलधिवलयन्तेन कृतमे यनेनैवोन्नेयन् धृतमहिम दिव्यम् तव वपुः रथः क्षोणीयन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिशर इति दिधक्षोऽस्ते कोऽयम् त्रिपुरतृणमाडम्बरविधि विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुदियः हरिस्ते साहस्रम् कमलबलिमाधाय पदयोर्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणाम् रक्षायै त्रिपुरहर जागर्ति जगताम् क्रतौ सुप्ते जाग्रत्वमसि फलयोगे क्रतुमताम् क्वकर्म प्रध्वस्तम् फलति पुरुषाराधनमृते अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवम् श्रुतौ श्रद्धाम् बद्ध्वा दृढपरिकरः कर्मसुजनः क्रिया दक्षो दक्ष क्रतुपतिरधीशस्तनुवृताम् ऋषीणामार्त्विज्यौ शरणदसदस्याः सुरगणाः क्रतुभ्रेशस्त्वत्तः क्रतुफलविधानौ व्यसनिनो ध्रुवम् कर्तुश्रद्धा विधुरमभिचाराय हि मखाः प्रजानाथन्नाथ प्रसभमविकं स्वान्दुहितरम् गतौ रोहिद्भूतांरिरमैषु मृष्यस्य वपुषा धनुष्पाणेर्यातम् दिवमपि सपत्राकृतममुन् प्रसन्तम् तेद्यापि त्यजति न मृगौ व्याधरभसः स्वलावण्या शंसाधृतधनुषमहन्नाय तृणवत् पुरः प्लुष्टम् दृष्ट्वा पुरमथन पुष्पायुधमपि यदि स्त्रैणम् देवीयमनिरतदेहार्धघटनात् अवैति त्वा मद्धा बत वरदमुग्धा युवतयः श्मशानेष्वा क्रीडा स्मरहरपिशाचा सहचराश् चिताभस्मालेपस्रगपि नृकरोटि परिकरः अमङ्गल्यं शीलं तव भवतु नामैवमखिलम् तथापि स्मर्तृणां वरद परमं मङ्गलमसि मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्ररुष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः यदा लोक्यालादौ हृदैव निमज्जामृतमये दधत्यन्तस्तत्त्वम् किमपि यमिनस्तत् किल भवान् त्वमर्कस्त्वम् सोमस्त्वमसि पवनस्त्वम् हुतवः त्वमापस्त्वम् व्योम त्वमुदरणिरात्मा त्वमिति च परिच्छिन्नामेवम् त्वयि परिणता बिभ्रतु गिरन् न विद्मस्तत्तत्त्वम् वयमिह तु यत्त्वन्न भवसि रयिन्तिस्रो वृत्तिस्त्रिभुवनमथो त्रीनपि सुरान् अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्ण विकृति तुरीयन्ते धामध्वनिभिरवरुन्धानमणुभिः तमस्तौ व्यस्तम् त्वम् शरणदगृणात्योमिति पदम् भवः शर्वो रुद्रः पशुपतिरथोऽग्रसः महान् तथा भीमेशानाविति यदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकम् प्रविचरति देवश्रुतिरपि प्रियायास्मै धाम्ने प्रणिहित नमस्योऽस्मि भवते नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नमः क्षोधिष्ठाय स्मरहरमहिष्ठाय च नमः नमो वर्षिष्ठाय त्रिनयनव्यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः कृशपरिणति चेत क्लेशवश्यं क्वचेदं क्वच तव गुणसीमो लङ्घिनी शश्वदृद्धिः इति चकितममन्दी कृत्यमां भक्तिराधाद् वरदचरणयोस्ते वाक्यपुष्पोपहारम् असितगिरिसमौ स्यात् कज्जलौ सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी लिखति यदि गृहीत्वा शारदा सर्वकालन् तदपि तव गुणाना मीशपारन्न याति असुरसुरमुनीन्द्रैर्रर्चितस्येन्दुमौलेर्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य सकलगणवरिष्ठ पुष्पदन्ताभिधानो रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार अहरहर न वद्यन् धूर्जटे स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान्य स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायु पुत्रवान् कीर्तिमांश्च दीक्षादानन्तपस्तीर्थम् ज्ञानम् यागादिकाः क्रियाः महिम्नस्तव पाठस्य कलान्नार्हन्ति षोडशीम् आसमाप्तमिदं स्तोत्रम् पुण्यं गन्धर्वभाषितम् अनौपम्यं मनोहारि शिवमीश्वरवर्णनम् महेशान्नापरो देवो महिम्नो नापरास्तुतिः अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् कुसुमदशननामा सर्वगन्धर्वराजः शिशुशशिधरमौलेर्देवदेवस्य दासः स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीत् दिव्यदिव्यम् महिम्नः सुरवरमुनिपूज्यम् स्वर्गमोक्षैकहेतुम् पठति यदि मनुष्य प्राञ्जलिर्नान्यचेताः व्रजति शिवसमीपम् किन्नरैः स्तूयमानः स्तवनमिदममोघम् पुष्पदन्तप्रणीतम् श्रीपुष्पदन्तमुखपङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण कण्ठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः एषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः अर्पिता तेन देवेश प्रीयताम् मे सदाशिवः यदक्षरम् पदम् भ्रष्टम् मात्राहीनम् च यद्भवेत् तत्सर्वम् क्षम्यताम् देव प्रसीद परमेश्वर हरि ओम् पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः।